गणपति गुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आन शृण्वन्नोतिभिः सीदसाधनम् प्रणो देवी सरस्वती वाजिनीवती धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो अग्निरायतनं वेदा आयतनवान् भवति आपो वा अग्निरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनं वेदा आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपत आयतनं वेदा आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेदा आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनं वेदा आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनं वेदा आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद यो ओप्सुनावम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाय प्रसय्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समेकामाम् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः स नः पर्षदति दुर्गानि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फले जुजुष्टाम् दुर्गाम् देवी गुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गानि विश्वा पोष्य पृथ्वी बहुलान उर्वी भवातोकाय तनयाय शय्योः विश्वानिनो दुर्गः जातवेद सिन्धुन्ननावादुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानो अस्माकम् बोध्यविता तनूना पृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमात् सदस्तात् स नः पर्षदति दुर्गानि विश्वाक्षामध्येवो अतिदुरितात्यग्निः प्रत्नोषि कमीड्यो अध्वरेषु सना च होतानव्यश्च सत्सी स्वाञ्चाग्ने तनुवम् विप्रयस्वास्मभ्यम् च सौभगमायजस्वा गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णु रनुसञ्चरेमा नाकस्य पृष्ठमभिसंवसानो वैष्णवीम् लोक इह मादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्य शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः
ప్రజాం మరి మరి ప్రజాం ప్రజాం మయి ఇంద్ర ఇంద్రో